अस्तु सम्प्रति स्नेहस्य प्रत्यक्षग्राह्यत्वम् इत्यस्मिन् विषये चर्चा इतोपि जायमाना अस्ति. सिद्धान्तिप्रतिपक्षिणयोः मतभेदः अस्ति. स्नेहस्य प्रत्यक्षग्राह्यत्वं भवति इन्द्रियद्वयेन इति मन्यन्ते सिद्धान्तिनः. प्रतिपक्षी अदृश्यमानेन स्नेहेन पिण्डीभावः इति कार्यं जायते, परन्तु पिण्डीभावः एव दृश्यते, न तु साक्षात् स्नेहः इति ते वदन्ति. तदनन्तरं पिण्डीभावः क्रिया इति वदति प्रतिपक्षी. अस्य विषये इतोपि विवादः भवति. नैयायिकवैयाकरणयोः मतं भिन्नम् अत्र. प्रथमं तु श्रीप्रत्ययात् यत् न जातम् एतवता इदानीं जातम् इत्यर्थः. तेन क्रिया बोध्यते, अतः पिण्डीभावः इति क्रिया इति वैयाकरणाः वदन्ति. नैयायिकाः तु इच्छा, कृतिः, ज्ञानम् इत्येषु स्थलेषु क्रिया न जायन्ते, ते गुणाः एव. इष्टातु वा कृदातु ज्ञादातुः तेषां फलमेव इच्छादयः गुणाः इति. अस्मिन् गुणः अस्ति इति बोध्यते. बालकः इच्छावान्, तस्मिन् इच्छा अस्ति इति अर्थः. पिण्डीभावः इत्यनेन गुणः उत्पन्नः इति अर्थः. ध्वनिः आगच्छति, कृपया म्यूट् कुर्वन्तु. अस्तु, इतोपि व्यवहारं विना फलं न उत्पद्यते इति वैयाकरणाः. किञ्चित् म्यूट् कुर्वन्तु कृपया. नैयायिकाः तु भावार्थे धर्मस्य इङ्गितम् अथवा यथा पुस्तकत्वं, सुन्दरता इति नैयायिकाः वदन्ति क्रिया इति. वैयाकरणाः वदन्ति धातुतः भावार्थे शुद्धा क्रिया एव अर्थः इति. इदानीं धातुयोग गञ् प्रत्ययः वा धातुयोग ल्युट् प्रत्ययः, तौ शुद्धा क्रियामेव प्रयतः न तु धर्मः इति वैयाकरणाः वदन्ति. नैयायिका न तु धर्मः इति. नैयायिकाः वदन्ति यत् पिण्डीभावः भवति इति वदनेन द्विवारं क्रिया भवति अस्मिन् वाक्ये इति ते वदन्ति. अस्तु, इदानीम् अग्रे पठेम वैयाकरणानां प्रति प्रतिस्पन्दम्. अस्तु, प्रायः पुरतः करपत्रम् उद्घाटितं स्यात् इति मन्ये, स्नेहस्य प्रत्यक्षग्राह्यत्वं पिण्डीभावप्रसङ्गे च इति करपत्रम्. तत्र अन्यच्च इति आरभ्य, अन्यच्च इति आरभ्य पठेम. अस्तु, प्रथमं राजेन्द्रमहोदय.
आं भगिनि, अन्यच्च न्यायिकावर्यस्य कथनम् आसीत् पिण्डीभावः भवति इत्यस्मिन् क्रिया द्विवारम् उक्तं तेषां मतम् अनुसृत्य. यथा बालकः गमनं गच्छति तथैव, अतः साधुरीत्या अर्थः न निष्पद्यते. किन्तु यथोक्तं पाकं पचति इत्यादयः प्रयोगाः प्रसिद्धाः. क्रिया स्वस्या कर्म भवति. इच्छाम् इच्छति इत्यर्थे एषिष्यति इति सनन्तरूपं प्रमाणं. नाम पाठं पठति इति वाक्ये पठनक्रिया पठति, तदस्य कर्मफलं. तर्हि प्रश्नः उदेति, क्रिया स्वस्याः कर्म भवति वा इति चेत्, या रीत्या गन्तुम् इच्छति इत्यर्थे जिग्मिष्यति इति सनन्तरूपं भवति. यस्मिन् गमनक्रिया इच्छति पदस्य कर्मफलं, तया रीत्या इष्टुम् इच्छति इत्यर्थे इष्टिष्यति इति सनन्तरूपं भवति अर्थपूर्णञ्च. कस्यचित् आलस्य अस्ति पठनात् अथवा अपरस्मात् क्रियाविशेषात् दूरं गतः सः किमपि कर्तुं नेच्छति तदानीम् अहो मया सम्यक् कर्तव्यम् इति चिन्तयति इच्छा विषयिणीम् इच्छां प्राप्नोति मनसि इच्छा अस्ति यत् तादृशी इच्छा स्यात् इतोपि मया एष्टव्यम् इति चेत् सः एषिष्यति अनेन प्रमाणं भवति यत् इच्छा क्रिया इच्छति पदस्य कर्म भवति यथा पाठः एव पठनक्रियायां कर्म तद्वत् इच्छा एव इच्छाक्रियायां कर्म इदं न विरुध्यते इति व्याकरणग्रन्थेषु ग्रन्थेषु अस्ति
अस्तु महोदय
इदानीं वदनं तु प्रतिपक्षी वदति एवं वा भगिनि प्रतिपक्षी एव अस्ति प्रतिपक्षी वदति न्यायिकावर्यः यः सिद्धान्तेन अस्ति तेषां कथनम् आसीत् पिण्डीभावः भवति इत्यस्मिन् क्रिया द्विवारम् उक्तं तेषां मतम् अनुसृत्य यथा पिण्डीभाव न्यायिकाः वदन्ति पिण्डीभावः भवति यदा वदामः यदि चिन्तयामः पिण्डीभावः क्रिया एव तथा कथं द्विवारं क्रिया वदामः तत् अनुसृत्य यथा प्रतिपक्षे उपरि उक्तम् आसीत् यथा बालकः गमनं गच्छति तथैव प्रतिपक्षे वदति यथा वदामः बालकः गमनं गच्छति तथैव यथा बालकः गमनं गच्छति भ्रमणार्थं गच्छति कुत्रापि तत्र यथा तत् वदामः तथैव पिण्डीभावः अपि भवति तदपि तथैव तादृशी प्रयोगं प्रयुजामः अस्माभिः यथा व्याकरणाः मतम् अस्ति अतः साधुरीत्या अर्थः निष्पद्यते न्यायिकाः वदन्ति यथा द्विवारं क्रियापदं प्रयुज्य वदामः तथा साधुरीत्या अर्थः निष्पद्यते किञ्चित् भ्रमात्मक भवति पिण्डीभावः भवति गमनं गच्छति तदा वदामः तादृशं वदामः तत्र अर्थः निष्पद्यते साधुरीत्या किञ्चित् रसः भ्रमः भवति तत्र किन्तु यथा उक्तं पाकं पचति इत्यादयः प्रयोगाः प्रसिद्धाः इदानीं प्रतिपक्षी वदति यथा पाकं पचति यथा वदामः तादृशी प्रयोगाः तत्र प्रसिद्धाः नास्ति तत्र कोऽपि भ्रमः नास्ति क्रिया स्वस्याः कर्म भवति क्रिया स्वस्याः कर्म यथा पाकं क्रिया अस्ति परन्तु यथा वदामः पाकं पचति तत्र पाकं स्वस्य क्रियायाः कर्म भवति पाकं पचति यथा वदामः इच्छाम् इच्छति इत्यर्थे एषिष्यति इति सनन्तरूपं प्रमाणं यथा इच्छाम् इच्छति यथा वदामः तत् एषिष्यति यथा वदामः तस्य अर्थः अस्ति इच्छाम् इच्छति सनन्तरूपम् अस्ति इच्छाम् इच्छति तस्य सनन्तरूपम् अस्ति सः एव प्रमाणः अस्ति भगिनी सम्यक् वदामि वा किञ्चित्
आमामां वदतु महोदय सम्यक् एव
धन्यवादः नाम पाठं पठति इति वाक्ये पठनक्रिया पठति पदस्य कर्मपदं तथैव यथा पाठं पचति पाकं पचति इच्छाम् इच्छति तथैव पाठं पठति इति वाक्ये पठनक्रिया अस्ति पठति तस्य कर्मपदं पाठम् अस्ति तत् वदामः तत् कोऽपि क्लेशः दोषः नास्ति तर्हि प्रश्नः उदेति क्रिया स्वस्याः कर्म भवति वा तादृशी प्रश्नः उदेति यथा पाठं पठति इच्छाम् इच्छति पाकं पचति क्रिया स्वस्याः कर्म भवति वा यथा चिन्तयामः द्विवारं वक्तुं शक्नुमः पाठं पठति पाकं पचति तत् क्रिया स्वस्याः कर्म भवति वा क्रिया इति चेत् यया रीत्या गन्तुम् इच्छति इत्यर्थे जिगमिष्यति इति सनन्तरूपं भवति यथा वदामः लोके अपि वदन्ति गन्तुम् इच्छति तत् जिगमिष्यति सनन्तरूपम् अस्ति तस्य तत् यस्मिन् गमनक्रिया इच्छति गमनक्रिया यस्य यस्मिन् इच्छति पदस्य कर्मपदं गमनक्रिया पदस्य कर्मपदं गमनक्रिया इच्छति अथवा गन्तुं तत् कर्म पदस्य कर्मपदम् अस्ति तया रीत्या एष्टुम् इच्छति इत्यर्थे एषिष्यति इति सनन्दरूपं भवति अर्थपूर्णञ्च कस्यचित् कस्यचित् जनस्य आलस्यः भवति तत् यदा आलस् भवति तत् पठनात् अथवा अपरस्मात् क्रियाविशेषात् दूरं गतः सः आलस् जनः पठनात् अथवा अन्य कोऽपि क्रिया दूरं गतः सः किमपि कर्तुं न इच्छति तदानीम् अहो मया सम्यक् कर्तव्यम् इति चिन्तयति तदा सः चिन्तयति सम्यक् मया सम्यक् कर्तव्यं चिन्तयति इदानीम् इच्छाविषयिणीम् इच्छां प्राप्नोति तत् भगिनि इच्छाविषयिणीं
इति किमपि प्राप्नोति इत्युक्ते इच्छा इति विषयः आप्नोति मम इच्छा भवेत् इच्छा एव विषयः अस्ति अत्र इच्छाविषयिणीम् इच्छा इति विषयः इच्छन् इच्छति विषयम् इच्छति इति
मनसि इच्छा अस्ति यत् तादृशी इच्छा स्यात् यः सः जनः यः आलसः आसीत् किमपि न कर्तुम् इच्छति तस्य मनसि इच्छा अस्ति यत् तादृशी इच्छा स्यात् च इतोपि मया इष्टव्यम् इति चेत् सः एषिष्यति एषिष्यति अनेन प्रमाणं भवति यत् इच्छा क्रिया इच्छति पदस्य कर्म भवति अन्य प्रमाणाः अपि तत्र भवेयुः तत् यथा इच्छा क्रिया इच्छति तस्य पदस्य कर्म भवति यथा पाठः एव पठनक्रियायां कर्म तद्वत् इच्छा एव इच्छाक्रियायां कर्म इदं न विरुध्यते इति व्याकरणग्रन्थेषु अस्ति व्याकरणग्रन्थेषु तत् तादृशी तादृशी प्रयोजयामः तत् तादृशी तादृशी प्रयोजनम् अस्ति यथा पठनक्रिया कर्म अस्ति तत्र इच्छाक्रियायां कर्म अस्ति तत् क्रिया एव क्रियायाः कर्म भवति तादृशी तत् व्याकरणग्रन्थेषु कोऽपि विरोधं नास्ति तत्
आम् समीचीनं महोदय समीचीनमेव अस्तु अतः सनन्तरूपस्य सनन्तरूपाणाम् उदाहरणानि दत्त्वा प्रतिपक्षी वदति यत् एतत् स्तुः एव क्रियापदमेव कर्म भवति इति कृत्वा तादृशप्रयोगः स्तुः एव तत्र कापि किमपि दोषः नास्ति इति वदति अतः तदाधारेण किम् अस्ति विषयः अत्र राजेन्द्रमहोदय
न्यायिकाः तु वदति कथं द्विवारं क्रिया प्रयुज्यामः तथा मा भवतु तत् यथा क्रिया एव गुणः एव अस्ति यथा इच्छा ज्ञानं पठनं तत् गुणः एव अस्ति तथैव द्विवारं क्रियापदं प्रयुज्य तत् तथा मा अस्तु तत् सम्यक् न अस्ति
परन्तु प्रतिपक्षी किं वदति उदाहरणं सर्वं दत्त्वा तदाधारेण पिण्डीभावस्य विषये किम् अस्ति विषयः
यथा प्रतिपक्षी वदति तत् पिण्डीभावः क्रिया एव क्रिया एव पिण्डीभावः भवति तत्रापि दोषः नास्ति यथा यथा पाठं पठति पाकं पठति तथैव पिण्डीभावः भवति तस्य तत्रापि कोऽपि दोषः नास्ति यथा क्रियाभावः तत् क्रिया एव अस्ति
समीचीनं
द्विवारं वदामः अपि क्लेशः नास्ति
पिण्डीभावः भवति इत्यनेन पिण्डीभावः यः शुद्धा क्रिया अस्ति तस्य कर्मपदमेव पिण्डीभावः इति उदाहरणं सनन्तरूपस्य उदाहरणं दत्त्वा वदति अस्तु अग्रे शुकवनं महोदय कृपया
श्रोता अस्मिन् विषये नैयायिकाः किं वदन्ति इति पुनः श्रोता पृच्छति अस्मिन् इत्युक्ते क्रिया स्वस्याः कर्म भवति इति प्रतिपक्षी पूर्वस्मिन् परिच्छेदे उक्तः तस्मिन् विषये नैयायिकाः किं वदन्ति इति श्रोता पुनः पृच्छति तस्य उत्तरं प्रतिपक्षी एवं दास्यति अत्र नैयायिकाः वदन्ति यत् क्रियापदं नास्ति चेदपि बोधो भवति यथा चैत्रः पण्डितः इत्युक्ते पण्डितभिन्नः चैत्रः इति बोधः आनुभविकः अनुभवे अस्ति अतः तिङन्तपदं नास्ति चेदपि चिन्ता नास्ति अत्र तावद् प्रथमम् अहं वदामि इदानीं प्रतिपक्षी वदति नैयायिकाः किं वदन्ति इत्युक्ते क्रियापदम् एकस्मिन् वाक्ये क्रियापदं नास्ति चेदपि तस्य वाक्यस्य बोधः भवत्येव इति नैयायिकाः वदन्ति तस्य प्रतिपादनार्थं चैत्रः पण्डितः इति यदा एकः वाक्यं प्रयोगं करोति चेत् तत्र चैत्रः पण्डितः इति पदद्वयमेव अस्ति तत्र क्रियापदं किमपि नास्ति यद्यपि क्रियापदं नास्ति किन्तु अस्माकं बोधः भवति कीदृशबोधः इत्युक्ते चैत्रः इति एकः पुरुषः पण्डितानाम् अन्यतमः इति बोधः भवत्येव तत् तत्त्वम् अनुभवम् अपि कुर्मः इति कृत्वा नैयायिकाः वदन्ति तिङन्तपदं नास्ति चेदपि किमपि चिन्ता नास्ति वाक्यस्य बोधः भवत्येव इति नैयायिकाः वदन्ति इति पूर्वपक्षी वदति अत्र वैयाकरणः वदन्ति यत् क्रियापदं नास्ति चेदपि तेन पदसमूहेन परिपूर्णार्थः न बोध्यते नाम चैत्रः पण्डितः अस्ति वा अभूत् वा आसीत् वा आगमिष्यति वा गच्छति वा लिखति वा पठति वा किम् इति न ज्ञायते एतदर्थम् अस्माभिः व्याकरणक्षेत्रे मन्यते यत् तिङन्तपदं नोक्तं चेदपि अस्ति इति अन्तर्भवति तावत्पर्यन्तं वदामि प्रथमम् इदानीं वैयाकरणाः वदन्ति यद्यपि चैत्रः पण्डितः इति बोधः इति वाक्ये बोधः भवति इति नैयायिकाः वदन्ति किन्तु तत् बोधः सम्पूर्णं नास्ति इति वैयाकरणाः वदन्ति किमर्थं सम्पूर्णं नास्ति इत्युक्ते चैत्रः पण्डितः इत्युक्ते पण्डितानाम् अन्यतमः इति यद्यपि बोधः भवति किन्तु सः इदानीं पण्डितः अस्ति वा पूर्वमेव पण्डितः अभूत् वा आसीत् वा सः आगमिष्यति वा गच्छति वा लिखति वा पठति वा इति सः किं करोति इति किं करोति अपि च पण्डितः अभूत् वा इदानीमेव भविष्यति वा इत्यपि बोधः न भवति इति कृत्वा चैत्रः पण्डितः इति वदेत् चेत् तत्र सम्पूर्णबोधः न मिलति इति वैयाकरणाः वदन्ति इदानीं एतदर्थम् अस्माभिः व्याकरणक्षेत्रे मन्यते यत् तिङन्तपदं नोक्तं चेत् अस्ति इति अन्तर्भवति यत्र यत्र तिङन्तपदं साक्षात् न उक्तं तत्र तत्र अस्ति इति स्वीकृत्य वयम् अवगन्तुं शक्यते इति वैयाकरणक्षेत्रे तेषां मतम् अस्ति. महाभाष्ये साक्षात् उक्तं यत् अप्रयुज्यमान अपि अस्ति इति महाभाष्ये. अप्रयुज्यमान इत्युक्ते यद्यपि अस्ति इति पदस्य प्रयोगं न कृतं चेदपि तद् अस्ति एव इति भाव्य वयं स्वीकर्तुं शक्यते. चैत्रः पण्डितः अस्ति इति स्वीकृत्य सम्पूर्ण अर्थम् अवगन्तुं शक्यते इति महाभाष्यकारः वदति. अस्ति इति नास्ति चेदपि अस्ति एव इति किञ्चित् जाटिल्यरूपेण महोदयेन उक्तम् अत्र. अस्ति इति पदं वाक्ये नास्ति चेदपि अस्ति इति पदम् अस्ति एव इति तस्य अवगमनं. तिङन्तं भवति चेदेव वाक्यं परिपूर्णं भवति, येन आकाङ्क्षा शान्ता स्यात्. सर्वथा अस्ति इति नास्ति, योग्यक्रियायाः अध्याहारः कर्तव्यः. यथा द्वारम् इति चेत् पिधीयते, तत्र तत्र योग्यक्रियायाः अध्याहारं बोधयति अस्ति वर्तते इत्यस्य कथनेन. इदानीं पुनः वैयाकरणः वदति यद्यपि अस्ति इति तत्र वाक्ये साक्षात् न उक्तं चेदपि तत् स्वीकर्तुं शक्यते, किन्तु सर्वत्र तादृशं कर्तुं शक्यते वा इति चेत् न. उदाहरणार्थं द्वारम् इत्युक्ते डोर्, तत्र कोऽपि द्वारम् इति केवलं वदति चेत् द्वारम् अस्ति इति कथनेन किमपि प्रयोजनं नास्ति. पिधीयते इति योग्यक्रिया, द्वारं प्रायः कीलयितुं शक्यते, नो चेत् पिधीयतुं शक्यते इति साधुप्रयोगः वा इति अहं न जाने, किन्तु तादृशं प्रयोगं करोमि. द्वारस्य
इति नामपि न जानामि.
अस्तु, द्वारस्य कीलनं कर्तुं शक्यते, पिधानमपि कर्तुं शक्यते. एतद्द्वयमेव द्वारस्य विषये योग्यक्रिया भवितुम् अर्हति. तदेव तत्र अध्याहारं कर्तुं शक्यते. सर्वत्र अस्ति इति अध्याहारं कृत्वा, नो चेत् अध्याहारम् इत्युक्ते आरोपणं कृत्वा सम्पूर्ण अर्थं न मिलति इति कृत्वा योग्यक्रियायाः अध्याहारं भवेत्. नो चेत् सम्पूर्णबोधं न भवति. सम्पूर्णबोधं न भवति चेत् अस्माकम् आकाङ्क्षा शान्ता न भवति. आकाङ्क्षा तदानीमपि वर्तत्येव इति कृत्वा क्रियापदस्य, योग्यक्रियापदस्य आवश्यकता अस्ति एव इति वैयाकरणाः वदन्ति. इत्युक्ते सारांशत्वेन एकस्मिन् वाक्ये योग्यक्रियायाः अध्याहारं नास्ति चेत् सम्पूर्णबोधः न भवत्येव कदापि इति वैयाकरणाः वदन्ति.
समीचीनमेव, तदस्ति सारांशत्वेन. समीचीनम्, अस्तु. अग्रे सरला भगिनी पठति किम्?
अस्तु भगिनि.
हा, एकनिमिषं, तस्मात् पूर्वं कति ध्वनिः आगच्छति खलु? सर्वे स्टार् सिक्स् नोदयन्तु कृपया. सरला भगिनी कृपया अन्म्यूट् कृत्वा वदतु. धन्यवादः. हा, सरला भगिनी. भगिनी पुनः स्टार् सिक्स् नोदयतु भवती.
इदानीं श्रूयते?
हा, श्रूयते. हा, प्रतिध्वनिः नास्ति. समीचीनमेव.
किन्तु केवल राघवीकरणशरणा.
एकनिमिषं भगिनी, पुनः वदतु भगिनी. केवल
केवल राघविकशरणा राघविकशरणाः न्यायिकास्तु स्तिङन्तं नास्ति चेत् अपि बोधः अनुभूयते इति वदन्ति. अनुभवप्रमाणम् इति वदन्ति. अनुभवप्रमाणम् इत्युक्ते यत्र प्रत्यक्षादीनां क्रियादिकं जानन्ति तत्र तु क्रियापदं नास्ति चेत् अपि प्रत्यक्षतया सत्त्वात् तत्र बोधः भवति चेदपि तिङन्तं विना सर्वत्र बोध जायते इति वक्तुं न शक्यते इति वैयाकरणाः. अतः पिण्डीभाव इत्यस्य कथनेन पिण्डीभावः भवति वा भविष्यति वा अभूत् वा आगमिष्यति वा अथवा पिण्डीभावं वदति वा पिण्डीभावं लिखति वा पिण्डीभावं कथयति वा कापि क्रिया भवेत् अर्थपरिसमाप्तिं प्रति परिपूर्णार्थबोधं प्रति क्रियानिमित्तं क्रियापदं विना परिपूर्णार्थो न बुध्यते. आकाक्षा शान्ता न भवति क्रियायाः अध्याहार कर्तव्य. इदं पुनः प्रत्यक्षी स्पष्टं करोति. नैयायिका वदन्ति यदि तिङन्तं पदं क्रियापदं न उपयुजामः तदपि तस्य बोध भवति अनुभवरूपेण तस्य बोध भवति. राघव बहु राघवं रीत्या वदामः अनुभवप्रमाणम् इति वदन्ति. इत्युक्ते प्रत्यक्षादीनां क्रियादिकं जानन्ति तत्र तु क्रियापदं नास्ति चेदपि यदि प्रत्यक्ष यदि गमनक्रिया क्रीडाक्रिया प्रत्यक्ष वयम् ग्रहीतुं शक्नुमः तस्य कोऽपि समस्या नास्ति. तस्य अनुभवं प्रत्यक्षं वयं जानीमः. किन्तु यदि इच्छा वा ज्ञान एते क्रियाः सन्ति ते क्रियाः वयं प्रत्यक्षं न जानीमः. तस्य अनुभवं न भवति. तस्य अनुभवः केवलं यः इच्छति तस्मिन् भवति अन्येन न भवति. तस्य कथं वयं वदामः. अतः वैयाकरणा वदन्ति क्रियापदस्य उपयोज्यं बहु आवश्यकम् अस्ति. तस्य विना वाक्यस्य अर्थं परिपूर्णं न भवति. यदा वयं वदामः पिण्डीभावः किं पिण्डीभावः केवलं पिण्डीभावः तस्य कोऽपि अर्थः न भवति. यदि वयं वदामः पिण्डीभावः भवति भविष्यति अभूत् आगमिष्यति इतः पिण्डीभावः कालस्य सूचना ददाति. अपि कोऽपि पिण्डीभावः प्रति लेखनं लिखति वा किं वदति पिण्डीभावं प्रति या कथयति तस्य विवरणं करोति. तस्य एतत् वाक्य पदानि योजयामः यदि क्रिया भवेत्. अतः नैयायिकाः वैयाकरणा तयोः आक्षेप भिन्ना अस्ति. नैयायिका वदन्ति कोण अस्ति तस्य क्रियापदं न योजयामः. वैयाकरणा वदन्ति क्रियापदं योजयामः इति आवश्यकमस्ति. तस्य विना किमपि अर्थ पूरणं न भवति. अर्थपरिपूरणाम् अर्थे क्रियापदं बोधम् आवश्यकमस्ति. तस्य विना आकाङ्क्षा कर्तुः मनसि का आकाङ्क्षा आसीत् तस्य कोऽपि बोधं न
जायते. समीचीनम् अस्ति. तत्र केवल लाघवीकशरणाः इत्युक्ते किं भगिनि?
लाघवीकशरणानि भवति लाघवी लघुरूपं वदेमः.
के के
लाघवं
एव भजन्ति इति
लाघवरूपम् उपयुज्य ते वदन्ति. वैयाकरण पूरण न केवलं पदं किन्तु पदस्य वाक्यं एकं इच्छति.
किं किं भगिनि पुनः?
लैक् पिण्डीभावः भवति एतत् भवति वाक्यं नैयाकरण वदन्ति केवलं पिण्डीभावः
तत् पर्याप्तम् इति ते वदन्ति. इतोपि जाटिल्यं न, जाटिल्यम् इत्युक्ते क्रियापदस्य योजनं न आवश्यकं. पिण्डीभावः इति वदनेन लाघवं भवति इति ते वदन्ति. अस्तु,
तेन मन्यते कर्मपदं वा क्रिया एव कर्मपदम् अभवति.
आम् आम्, समीचीनम्. अग्रे सुनीलमहोदय कृपया.
नैयायिकानां मते तादृशी अपेक्षा नास्ति. पिण्डीभावः यस्य वर्तते एतादृशप्रयोगः स्वीक्रियते चेत् पर्याप्तम्. अतः भवति इति प्रयोगः क्रियते चेत् पुनरुक्तिर्भवति इति आक्षेपः, यतोहि क्रियापदं विना अपि बोधो जायते. अयमेव अनुभवः अस्माकम् इति वदन्ति. यद्यपि मीमांसिकानां सूत्रे अपि तिङन्तमेव अर्थसमाप्तिं प्रति कारणं भवति, केवलं चैत्रः पण्डितः इति एतावता वदनेन अर्थः परिपूर्णो न. अत्र च वैयाकरणानां मतेन पर्यवसितं यत् प्रथमतया तिङन्तपदम् आवश्यकं, द्वितीयं च तत् सामानार्थकतिङन्तस्य अपि प्रयोगः भवितुम् अर्हति. पाकं पचति, पाठं पठति, एषिष्यति इति बहुधा प्रयोगाः दर्शिताः. तद्वत् पिण्डीभावो भवति इत्यपि. अतः अत्र इदानीं नैयायिकानां मते पूर्व उक्तरीत्या अपेक्षा नास्ति इति, इत्युक्ते अत्र क्रियापदस्य आवश्यकता नास्ति इति. अतः पिण्डीभावः केवलं पिण्डीभावः एव पर्याप्तं. पुनः भवति इति वदामः चेत् तत्र क्रियापदस्य पुनर्वचनम् अस्ति इति तेषां मतमस्ति. अतः तदा न अवश्यम् इति ते वदन्ति. इत्युक्ते अत्र क्रियापदं विना अत्र अर्थः जायते इति तेषां मतम्. अतः अनुभवः अयमेव अनुभवः अस्माकमिति ते वदन्ति. यद्यपि मीमांसिकानां सूत्रे अपि तिङन्तमेव अर्थसमाप्तिं प्रति कारणं भवति, ते वदन्ति अत्र मीमांसिकानां सूत्रे अपि तिङन्तमेव अर्थसमाप्तिं प्रति कारणं भवति इति. अतः केवलं चैत्रः पण्डितः इति कोऽपि वदति चेत् अर्थः परिपूर्णः न इति अत्र इदानीं वैयाकरणानां मतमस्ति. अत्र च वैयाकरणानां मतेन पर्यवसितं यत् प्रथमतया तिङन्तपदम् आवश्यकं, द्वितीयं च तत् समानार्थकतिङन्तस्य अपि प्रयोगः भवितुम् अर्हति. पाकं पचति, पाठं पठति, एषिष्यति इति बहुधा प्रयोगः दर्शिताः इति. अतः पुनः वैयाकरणानां मतम् एवम् अस्ति, तिङन्तपदस्य आवश्यकता अस्ति इति. अनन्तरं समानार्थकतिङन्तस्य प्रयोगः अपि भवतु इति तेषां मतम् अस्ति. अतः पाकं पचति, पाठं पठति, तादृशप्रयोगः सम्यक् समीचीनमिति तेषां मतमस्ति.
आम्, अतः सारांशत्वेन किम् अस्ति पुनः पिण्डिभावविषये?
अत्र नैयायिकानां मते अस्ति पिण्डिभावः इति, केवलं पिण्डिभावः इति एव पर्याप्तं. नैयायिकानां मतमस्ति पिण्डिभावः भवति अथवा अन्यक्रिया तिङन्तपदस्य प्रयोगः आवश्यकम् इति.
प्रथमं भवति इति पदनीयमस्ति, तत्र क्रियापदं भवेत्, अनन्तरं कुत्रचित्, अत्र तु पिण्डिभावः भवति इति वदनेन पिण्डिभावः इति क्रियापदस्य कर्मपदं तदपि भवितुं शक्नोति इति ते वदन्ति.
यदा पाकं पचति, पाठं पठति.
समीचीनम्. अतः किम् अस्ति तत् ज्ञाने वा ज्ञानपदे वा इच्छापदे, प्रथमं तु क्रिया सूचितं भवति, सूचिता भवति, अनन्तरं व्यवहारं तदनुकूल फलम् इत्युक्ते तदनुकूलव्यापारः इति यथा महोदयेन उक्तं, प्राधान्येन क्रिया बोध्यते, गौण्येन व्यापारः इति वैयाकरणानां मतम्. अत्र प्राधान्येन क्रिया, यतोहि क्रियातः एव निष्पद्यते इति, शुद्धा क्रिया इति सर्वं पठितवन्तः. गौण्येन व्यापारः इति, व्यापारेणैव फलं, फलस्य अर्थः तत्र भवति इति. तर्हि नैयायिकाः वदन्ति यत् तर्हि यथा भवान् वदति, हे प्रतिपक्ष, यथा भवान् वदति तर्हि सर्वे सकर्मकक्रियापद पदानि वा इति नैयायिकाः पृच्छन्ति. तादृशं नास्ति खलु, यतोहि अकर्मकक्रियापदानि अपि सन्ति वाक्येषु, परन्तु प्रायः एतादृशी चर्चा बहुधा जायमाना अस्ति. तस्य निवारणम् इति शमनं वा किमपि नास्ति इत्येव महोदयेन उक्तम् अस्ति अत्र. अतः एतस्य चर्चायाः समाप्तिः अस्ति. यद्यपि स्नेहविषये किमपि समाधानं नास्ति, तथापि मतभेदः कीदृशः अस्ति, प्रथमं तु सिद्धान्तिन प्रतिपक्षिणयोः मध्ये, अनन्तरं नैयायिका वैयाकरणयोः मध्ये कीदृशः मतभेदः वर्तते इति सर्वं ज्ञायते अस्माभिः. अस्तु, अस्मिन् विषये कोऽपि सन्देहः नास्ति चेत् अग्रे पुनः पुस्तकं पठेम. अस्तु, विद्याधरी पुस्तकं पुनः. पृष्ठसङ्ख्या अस्ति, किम् अस्ति तत्र, पेज् 117 इति. अस्तु, वर्धिनि भगिनि. एकशतमे पुटे वयं स्मः. तत्र चित्रम् अस्ति खलु भगिनि? तस्य वर्णनं करोतु कृपया.
चित्रप्रकाशनिष्ठकार्यतानिरूपित कारणताश्रयः विलक्षणसंयोगः पिण्डिभावः निष्ठ कार्यता निरूपित कारणताश्रयः स्नेहः
इत्युक्ते किं किञ्चित् विवृणोति
वा कार्यता पिण्डिभावः पृष्ठे अस्ति समवायसम्बन्धेन अवच्छेदक अवच्छेदकशब्दः
किं समवायसम्बन्धेन अस्ति पिष्टे
कार्यता पिण्डिभावः
पिण्डिभावः इति कार्यम् अस्मिन् कार्यता अस्तु
पिष्ट पिण्डिभावमध्ये समवायसम्बन्धः अस्ति
हा समवायसम्बन्धः किमर्थं
पिण्डिभावः गुणः पिष्टद्रव्यम्
अस्मिन् विषये कार्यकारणभावस्य प्रसङ्गः अस्ति अतः पिष्टम् इति कार्याधिकरणं खलु
कार्याधिकरणं
तु द्रव्यमेव परन्तु कार्याधिकरणम् इति
तत्र सम्बन्धः समवायसम्बन्धः अस्ति पिण्डिभावः गुणः
विलक्षणसंयोगः अतः संयोगः इति गुणः द्रव्ये अस्ति पिष्टम् इति कार्याधिकरणं तयोः समवायसम्बन्धः आम् पुनः स्नेहविषये स्नेहकेन सम्बन्धेन अस्ति कुत्र अस्ति
स्नेहनिष्ठकारणता
स्नेह कारणम् अस्तु परन्तु स्नेहकार्याधिकरणे केन सम्बन्धेन भवति
कार्याधिकरणे स्वाश्रयसम्बन्ध स्वाश्रयसंयुक्तसम्बन्ध
हा समीचीनं किञ्चित् विवृणोति वा स्वाश्रयसंयुक्तत्वसम्बन्धः इत्युक्ते किम् आश्रयकः त्वम् इति कः
आश्रयः कारणताश्रयः स्नेहः
कारणताश्रयः स्नेहः समीचीनं परन्तु स्नेहः कुत्र अस्ति किञ्चित् एतं परिचयं पठतु भगिनी तदनन्तरं किञ्चित् विवृणोतु पूर्वस्मिन् पुटे पञ्चदशाधिकशततमे पुटे इह इति आरभ्य पञ्चदशाधिकशततमे
पञ्चदशाधिकशततमे पुटे
115 इति इह
तादृशपिण्डिभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते स्नेहः तु समवायेन जले विद्यमानः स्वाश्रयसंयुक्त स्वाश्रयसंयुक्तसम्बन्धेन एव परम्परारूपेण पिष्टे भवति स्वं स्नेहः स्वाश्रयः जलं स्वाश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठकारणता अवच्छेदकसम्बन्धः स्वाश्रयसंयुक्तत्वरूपः पिण्डि
एतत् पर्यन्तं किञ्चित् वदतु भगिनि पूर्वं
स्नेहः जलं स्वाश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठकारणता अवच्छेदकसम्बन्धः
एकनिमिषं भगिनि तस्मात् पूर्वं किञ्चित् पुनः एकवारं वदतु स्नेह इति स्वं स्नेहः कुत्र अस्ति केन सम्बन्धेन पुनः पिष्टे केन सम्बन्धेन भवति
प्रति निमित्तकारणत्वं पिण्डीभावः विलक्षणसंयोगरूपः समवायेन पिष्टे वर्तते तदुक्तं स्नेहसमवायेन जले विद्यमानः
हा जले अस्ति स्नेह समवायेन तदनन्तरं
स्वाश्रयसंयुक्तत्वसम्बन्धेन एव स्वा इत्युक्ते स्नेहः स्नेह आश्रयसंयुक्तत्वसम्बन्धेन एव परम्परारूपेण तिष्ठे भवति तत्र परम्परासम्बन्धः अस्ति
केन तयोः
स्नेह पिष्टे मध्ये
हा हा समीचीनम् अग्रे कीदृश अवच्छेदकत्वं कारणता कारणतायां पुनः कार्यतायां
कार्यतायां समवायसम्बन्ध अवच्छिन्नकार्यता कारणता स्वाश्रयसंयुक्तसम्बन्ध अवच्छिन्नकारणता
हा समीचीनं भगिनि आम् अतः स्नेहः कीदृशं कारणं भवति पिण्डीभावं प्रति
स्नेहः निमित्तकारणमस्ति वा
निमित्तकारणमस्ति आं भगिनि समीचीनम्
कार्यता अवच्छेदकसम्बन्धः तु समवायः अतः स्नेहः पिण्डीभावं प्रति निमित्तकारणं भवति
आम् आम् अस्तु तेन स्नेहस्य चर्चा अपि समाप्ता भवति अस्तु
भगिनि
अस्तु आम् आम् महोदय
अत्र चित्रे कार्यताद्वयमस्ति तद्द्रष्टव्यम् इति भाति धारणे कार्यता अस्ति अस्ति तस्य कारणता पिण्डीभावे पुनः पिण्डीभावे कार्यता अस्ति तस्य कारणता स्नेहः
इत्युक्ते स्नेहः पिण्डीभावं प्रति कारणमस्ति अतः स्नेहे कारणता पिण्डीभावः इति कार्यम् इत्यतः तस्मिन् कार्यता अस्ति पुनः पिण्डीभावः कारणं भवति धारण आकर्षणं भवति खलु पिण्डीभावः अस्ति इति कृत्वा एव धारण आकर्षणं भवति चूर्णे पिष्टे इति एव तस्मिन् पुनः कारणता कार्यतां निरूपयति
इति स्थितौ मम मनसि एकचिन्तनम् आगच्छति पिण्डीभावः दर्शनार्हः वा इति प्रत्यक्षयोग्यः वा इति प्रश्नः आगच्छति किमर्थम् इत्युक्ते पिण्डीभावः अस्ति पिष्टे इति कथं वयं जानीमः धारण आकर्षणशक्ति धारण आकर्षणं यत्र भवति तत्र एव वयं पिण्डीभावः अङ्गी कुर्मः किल
एकनिमिषं पिण्डीभावः कथं जानीमः पिण्डीभावः अस्ति इति कथं जानीमः
हा यत्र धारण आकर्षणं भवति तत्र एव पिण्डीभावः अस्ति इति वयं जानीमः
आम्
इत्युक्ते पिण्डीभावस्य निरूपकः धारण आकर्षणं भवति
आम् अवश्यम्
इति कृत्वा पिण्डीभावः प्रत्यक्षयोग्यं वा इति प्रश्नः
भवान् एव वदतु पिण्डीभावे कारणता अस्ति पुनः प्रतिध्वनिः कृपया किं कुर्वन्तु हा पिण्डीभावः इति गुणः अस्ति इति कृत्वा एव कारणं भवति खलु पिष्टे
आमां तत्तु इदानीं कार्यताकारण कार्यकारणविषये प्रश्नः नास्ति पिण्डीभावः प्रत्यक्षयोग्यः वा इति प्रश्नः
तत् इदानीमेव करपत्रात् वयं सर्वं पठितवन्तः खलु देहः तस्य प्रत्यक्षं भवति इति खलु
आम् करपत्रे स्नेहः प्रत्यक्षयोग्यः वा न वा इति चर्चितं किन्तु तत्र किं स्वीकृतम् इत्युक्ते पिण्डीभावः साक्षात् प्रत्यक्षयोग्यम् इति स्वीकृत्य अग्रे गतं किन्तु इदानीम् अत्र दृष्ट्वा चित्रं दृष्ट्वा मम मनसि प्रश्नः आगतं पिण्डीभावः प्रत्यक्षयोग्यं वा किमर्थम् इत्युक्ते यदि प्रत्यक्षयोग्यम् इति चेत् धारण आकर्षणस्य आवश्यकता एव आवश्यकता किम् आवश्यकता एव नास्ति
इत्युक्ते पिण्डीभावः दृश्यते चेत् धारणम् इति कार्यं न आवश्यकम् इति वा प्रश्नः
न न किमर्थं वयं धारण आकर्षणं आकर्षणं दृष्ट्वा वदामः पिण्डीभावः अस्ति इति तावत्पर्यन्तं न न गन्तव्यं किल पिण्डीभावः साक्षात् दृश्यते चेत्
तावदेव पर्याप्तं
किमर्थं धारण आकर्षणं तस्मिन् अस्ति इति परीक्षा किमर्थं नास्ति एव साक्षात् प्रत्यक्षेन यद् दृश्यते तदेव अस्माकं ज्ञानं दास्यति पिण्डीभावः अस्ति इति तदनन्तरं पिण्डीभावः पिण्डीभावस्य कारणं किम् इति चर्चां वयं कुर्मः किमर्थं धारण आकर्षणम् अस्ति इतोपि अहं किञ्चित् वदामि उदाहरणार्थं सिका सिकता सिकता इत्युक्ते स्याण्ड् स्याण्ड् अस्ति किल तत् स्वीकृत्य केवलं हस्तेन एकं पिण्डरूपेण तत्र वयं स्थापयामश्चेत् तस्मिन् धारण आकर्षणं नास्ति यदा वयं एकस्मिन् पार्श्वे तत् किं वदामि
एतद् विषयम् उक्तवान् इति मन्ये आमामां तत्र धारण आकर्षणं न भवति तथापि पिण्डीभावः जायते
दृश्यते इत्युक्ते यत्र यत्र धारण आकर्षणं नास्ति तत्र पिण्डीभावः नास्ति इत्येव वयं स्वीकार्यं नो चेत् धारण आकर्षणस्य विषये किमर्थं वयं अत्र अस्माकं दर्शनं तस्मिन् विषये किमर्थम् अप्रयोजकं भवति किल
मम अहं किं चिन्तयामि इत्युक्ते अत्र चूर्णस्य उदाहरणम् अस्ति खलु चूर्णविषये तु हस्तेन एव धारणं वा आकर्षणं भवति इति कृत्वा तत् सोपानम् अस्ति अत्र परन्तु भवतः उदाहरणे प्रायः धारणमिति हस्तेन न जायते परन्तु किम् अन्य कोऽपि आग्रहः अस्ति खलु सम् फोर्स् इति येन धारणम् आकर्षणं जायते खलु
पिण्डीभावः अस्ति प्रायः अन्य फोर्स् इति कारणेन तत् तस्मिन् पिण्डीभावः अस्ति किन्तु धारण आकर्षण शक्ति तस्मिन् नास्ति यदा अहं धारणम् आकर्षणं करोमि चेत् तत् न आगच्छति एकीभूय न आगच्छति तत्
अन्य कोऽपि अत्र कस्यापि चिन्तनम् अस्ति वा
यदि स्टाण्ड् अस्ति तत्र केके कणा आकर्षक भवति न पृष्ठे इव बहु आकर्षणं न भवति तत्र पिण्डी भावत भवति कथम् एककरणम् अन्यकरणसह करणेन सह योज संयुक्त भवति
तत्र तस्मिन् किमपि अस्ति
भगिनी जयन्ति भगिनी अत्र मम आशयः एवमस्ति अत्र चित्रे कार्यता द्वयं दत्तमस्ति इति कृत्वा यत्र धारण आकर्षणशक्तिः दृश्यते तत्र एव पिण्डीभावः इति वयं स्वीकर्तुं शक्यते यत्र पिण्डीभावः अस्ति तस्य कारणं तु स्नेहः इति यत्र धारण आकर्षणशक्तिः नास्ति तत्र पिण्डीभावः नास्ति एव इति स्वीकार्यं नो चेत् अत्र धारण आकर्षणस्य कार्यता किमर्थं वक्तव्यम् तत्र तस्य आवश्यकता एव नास्ति इति कृत्वा धारण आकर्षणशक्तिः यत्र वर्तते तत्र एव पिण्डीभावः वर्तते
धारण आकर्षशक्ति न्यूनमपि भवितुं शक्नोति किन्तु पिण्डीभावः भवति धारण आकर्षणशक्ति मड् अति न्यूनं भवति पृष्ठे बहु अधिकम् अस्ति पिण्डीभावः भवति एतत् वक्तुं शक्नुमः
इत्युक्ते सिकतायां न्यूनम् अस्ति धारण आकर्षणशक्तिः न्यूनमस्ति चूर्णे अधिकमस्ति इति भवति
आमां चूर अपि भिन्नभिन्नपिष्टं यदि भवान् भवान् नयामः धारणा आकर्षशक्तिः भिन्ना भवति ताण्डुल पिष्टं वीट् वीट् फ्लावर् रैस् फ्लावर् एव्रिथिङ्ग् धारणशक्तिः डिफ्रेण्ट्
शक्तिः भिन्ना अस्ति इति भवती वदति इत्युक्ते
पिण्डीभाव भिन्नम् इति वदामश्चेत् पिण्डीभावः अपि च धारण आकर्षण आकर्षणयोः मध्ये कारणकार्यभावः कथं वक्तुं शक्यते
न भवति इति सत्यं परन्तु भिन्नेषु स्थलेषु भिन्ना वर्तते इति भगिनी वदति इत्युक्ते अवश्यं कार्यरूपेण धारणं भवति वा आकर्षणं भवति कुत्रचित् हस्तेन भवति कुत्रचित् हस्तं विना एव जायते तत्र प्रायः सिकतायां जलं पतति चेत् वृष्टिः भवति चेत् स्वयमेव पिण्डीभावः जायते खलु तत्र परन्तु तस्मात् पूर्वं धारणं धारणं वा आकर्षणं भवति फोर्स् इति कारणेन इति मम मतम्
अस्तु भगिनि केवलम् एवमेव पृष्टवान् अधिकं चर्चा न कुर्मः कार्यता द्वयमस्ति इति कृत्वा तादृशप्रश्नः मम मनसि आगतः प्रत्यक्षयोग्यं वा न वा
इत्युक्ते धारणस्य आवश्यकता अस्ति वा अस्मिन् चित्रे इति भवतः प्रश्नः खलु
अस्ति एव इदानीं पूर्वमेव प्रदर्शितं किल अत्र धारण आकर्षण आकर्षणरूपेण एव पिण्डीभावः अस्ति इति वयं जानीमः
आम् आम्
एकस्मिन् पार्श्वे स्थित्वा तत्र सर्वं पिष्टम् एकीभूय आगच्छति इति कृत्वा तादृशमेव वयं पठितवन्तः
आम् आम् आम्
अस्तु
अग्रे नूतनप्रकरणं शब्दनिरूपणम् अस्ति इति राजेन्द्रमहोदय कृपया
आम् आम् भगिनि अहं भगिनी म्यूट् मध्ये आसम् तथैव.
अस्तु अस्तु, चिन्ता
श्रूयते वा इदानीं?
श्रूयते.
शब्दनिरूपणं श्रोतृग्राह्यगुणः शब्दः आकाशमात्रवृत्तिः सः द्विविधः ध्वन्यात्मको वर्णात्मकश्चित् चेति वर्णात्मक इति चेति तत्र ध्वन्यात्मको बेर्याधौ वर्णात्मकः संस्कृतभाषादिरूपः. शब्दनिरूपणं तस्य लक्षणवाक्यमस्ति श्रोतृग्राह्यगुणः शब्दः श्रोतृ इन्द्रियन् यः ग्राह्यते गुणः यः गुणः ग्राह्यते सः गुणः शब्दः अस्ति. आकाशमात्रवृत्तिः अस्ति शब्दैः आकाशमात्रवृत्तिः अस्ति सः वृत्तिः द्विधा अस्ति. एकमस्ति ध्वनिम् आत्मको वर्णात्मक चेति एकं ध्वन्यात्मक अथवा वर्णात्मक द्विधा अस्ति तथा वृत्तिः ध्वन्यात्मक यथा बेरि यादव महोदयेन या तत् श्रीनिवासे उक्तवान् तत् तबला इत्युक्ते किञ्चित् ध्वनिमात्मकः यथा कोऽपि वाद्यः अस्ति वर्णात्मक यथा संस्कृतभाषारूपी शब्दाः सन्ति तत्र वर्णात्मकः अस्ति सः दलद्वयम् अत्र अस्ति. एकं तु अस्ति श्रोतृग्राह्यो श्रोतृन्द्रेण यः ग्राह्यते तथा अथवा गुणः यस्मिन् गुणः अस्ति सः सः शब्दः शब्दस्य लक्षणवाक्यम् अस्ति तथा.
समीचीनम्, अस्तु अग्रे शुकमनं महोदय कृपया.
क्रमप्राप्तं शब्दं लक्षयति श्रोत्रग्राह्यो गुणः शब्दः इति. अत्र लक्षणवाक्ये यत् वक्तव्यं तत् रूपनिरूपणे उक्तं तत्रैव अष्टसप्तति पुटे द्रष्टव्यम् आकाशमातृवृत्तित्वमपि आकाशनिरूपणे समर्थितम्. इदानीं क्रमप्राप्तं शब्दं लक्ष्यति, इदानीं शब्दं शब्दः इति गुणः तस्य लक्ष्यं दत्तमस्ति कीदृशम् इत्युक्ते श्रोत्रग्राह्यो गुणः शब्दः इति. अत्र लक्षणवाक्ये यत् वक्तव्यं तत् रूपनिरूपणे उक्तं. रूपनिरूपणे किमुक्तम् इत्युक्ते दलं दलसार्थक्यविषये वयं दृष्टवन्तः. अस्मिन् शब्दगुणे श्रोत्रग्राह्यो गुणः शब्दः इति लक्ष्ये दलद्वयं वर्तते. एकं तु श्रोत्रग्राह्यत्वं, द्वितीयं तु गुणत्वम् इति तत्र लक्ष्ये दलद्वयम् अस्ति. इदानीं वयं एकैकं दलं त्यक्त्वा तत्र अतिव्याप्तिः कुत्र वर्तते इति पश्यामश्चेत् प्रथमं श्रोत्रग्राह्यत्वम् इति दलं त्यजामश्चेत् केवलं गुणः शब्दः इत्येव गुणस्य लक्षणं भवति. तादृशं वदामश्चेत् अन्येषु गुणेषु अतिव्याप्तिः वर्तते रूपादिगुणेषु. किमर्थम् इत्युक्ते रूपादि गुणाः अपि गुणः गुणाः एव इति कृत्वा तत्र अतिव्याप्तिः तेषु अतिव्याप्तिः भवति इति कृत्वा श्रोत्रग्राह्यत्वं न त्यक्तव्यं. द्वितीयदलं तु गुणत्वं. यदि गुणः इति शब्दः गुणः इति पदं वयं लक्ष्ये त्यजामश्चेत् श्रोत्रग्राह्यो शब्दः इति लक्षणं भवति. यदि तादृशं वदामश्चेत् शब्दः इति शब्दत्वम् इति जातिः अस्ति. वयं पूर्वमेव दृष्टवन्तः यदा एकस्मिन् द्रव्यस्य प्रत्यक्षं कुर्मः चेत् तस्मिन् समये एव तस्मिन् तस्य जाति अपि वयम् अवगन्तुं शक्यते. पुस्तकं वयं पश्यामश्चेत् पुस्तकत्वम् अपि वयं तस्मिन् समये एव दृष्टः.
प्रत्यक्षं भवति.
हा, पुस्तकत्वम् इति जातिः अपि प्रत्यक्षयोग्यं भवति इति कृत्वा यदि गुणः इति पदं त्यजामश्चेत् शब्दत्वम् इति जातौ अतिव्याप्तिः भवति इति कृत्वा गुणस्य गुणः इति शब्दस्य आवश्यकता अस्ति इति कृत्वा श्रोत्रग्राह्यो गुणः इति तत्र दलद्वयमपि आवश्यकम् अस्ति. तदेव शब्दस्य लक्षणवाक्यम्. अपि च आकाशमात्रवृत्तित्वम् अपि आकाशनिरूपणे समर्थितम्. तत् मया दृष्टं तत्र द्विपञ्चाशततमपुटे द्वितीयपरिच्छेदे अस्ति. किं तर्हि तयोः सत्त्वे प्रमाणम् अनुमानं पृथित्रिके यादृशस्पर्शः वर्तते तद् विजातिस्पर्शः अनुभूयमानः यः स आश्रयभूतद्रव्यमपेक्षते इति तदाश्रयतया वायुः सिद्ध्यति. इदानीम् एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकम् इति तदाश्रयतया आकाशः सिद्ध्यति इति दत्तमस्ति. इति आकाशनिरूपणावसरे यद्यपि आकाशस्य रूपं नास्ति इति कृत्वा आकाशं प्रत्यक्षयोग्यं नास्ति, तथापि आकाशम् इति द्रव्यम् अस्ति इति अनुमानेन ज्ञातुं शक्यते. किमर्थम् इत्युक्ते शब्दः इति गुणः वयं अनुभूयते सर्वदा. तस्य यदि गुणमस्ति तत् स्वयमेव न तिष्ठति. तस्य आश्रयीभूत किमपि द्रव्यम् आवश्यकम् इति कृत्वा आकाशे गुणः आकाशे शब्दः शब्दम् इति गुणं शब्दाख्यगुणं वर्तते इति कृत्वा एव आकाशस्य निरूपणं पूर्वमेव जातं. तत् अत्र स्मृत्वा आकाशमात्रवृत्तित्वम् इत्युक्ते शब्दः केवलम् आकाशे एव वर्तते न अन्यद्रव्ये इति अत्र उक्तमस्ति. धन्यवादः.
अत्र कार्यकारणभावः दृश्यते वा
तयोः मध्ये भगिनि?
शब्दः आकाश तयोः मध्ये
नास्ति इति चिन्तयामि अहं. कार्यकारणभावः शब्दः इति गुणः द्रव्ये वर्तते.
क्षम्यताम् अत्र श्रोत्रग्राह्यगुणः शब्दः इति अस्ति खलु,
आम्,
तस्मात् कीदृशकार्यकारणभावः दृश्यते
तत्र? श्रोत्र्या एव शब्दं ग्रहीतुं शक्यते इति, कार्यकारणभावः नास्ति किन्तु तत्र प्रतिनियतग्राह्यत्वम् अस्ति।
हा तदेव इदानीं वर्गेण दर्शितं, परन्तु अत्र पृष्ठसङ्ख्या अस्ति अष्टसप्ततिः इति, ग्राह्यो गुणः शब्दलक्षणे इति अस्य उल्लेखनम् अस्ति परिच्छेदे, दृष्टं वा?
अष्टसप्तति,
हा,
78
इति, हा, अन्तिमे
श्रोत्रग्राह्यो गुण
इति
हा पश्यति, पश्यामि भगिनि, श्रोत्रग्राह्यो गुणः शब्दः इति शब्दलक्षणे तत्र चित्रमस्ति, श्रोत्रेन्द्रिये जनकता अस्ति।
किं जनकता इत्युक्ते किं?
कारणता
एव,
किन्तु जन्यता कुत्र अस्ति? प्रत्यक्षे अस्ति,
प्रत्यक्षमित्युक्ते ज्ञानम् इति, श्रोत्रेन्द्रियं ज्ञानं जनयति कृत्वा श्रोत्रेन्द्रियमेव कारणमस्ति, तस्मिन् कारणता अस्ति, प्रत्यक्षज्ञानं कारणता
इति, कारणता तु केवलं ज्ञाने अस्ति न तु शब्दे। श्रोत्रग्राह्यो गुणः शब्दः इति इत्यस्मिन् स्थले तत्र ज्ञानस्य विषयः किमपि नास्ति।
शब्दे अस्ति विषयता इति,
हा
आमाम्,
हा इति कारणता कार्यता तु तत्र केवलं विषये एव अस्ति, ज्ञाने अस्ति न तु शब्दे, शब्दम् इति गुणः इदानीम् इति कृत्वा तयोः मध्ये कार्यकारणभावः नास्ति।
शब्दे अस्ति विषयता, शब्दः इति विषयः उदेति वा प्रत्यक्षज्ञानेन इति कृत्वा शब्दे विषयता अस्ति,
शब्दज्ञानस्य कारणं श्रोत्रेन्द्रियम् इति, इन्द्रियज्ञानयोः मध्ये कारणकार्यभावः अस्ति।
भगिनि आकाशमाध्यम् अस्ति शब्दस्य, आकाश विना शब्द न भवति, अधिकरणं भवति,
हा समीचीनमेव, अतः
ट्रान्स्मिशन्
गुणः भवति कार्यं खलु, कारणं समवायिकारणम् अस्ति द्रव्यं, तयोः कार्यकारणभावः अस्ति एव आकाशशब्दयोः खलु, शब्दः इति गुणः द्रव्ये वर्तते,
आकाशविना शब्दम् एकं स्थानस्य अन्यस्थानपर्यन्तं न गच्छति यदि आकाश नास्ति।
आम् अपि तु अन्यत्र अपि वयं दृष्टवन्तः खलु द्रव्यगुणयोः मध्ये कारणभावः अस्ति, समवायिकारणम् अस्ति खलु द्रव्यं गुणं प्रति,
समवाय सम्बन्धः अस्ति,
गुणगुणिनोः इति खलु, गुणगुणिनोः समवायसम्बन्धः,
मध्ये समवायसम्बन्धः अस्ति, किन्तु आकाशः शब्दं जनयति इति तादृशकारणत्वं नास्ति,
जनयति अग्रिमे परिच्छेदे अस्ति, कथं कारणमस्ति शब्दस्य
अग्रिमपरिच्छेदं पठामः.
सः द्विध धन्य
सरला भगिनी.
अस्तु, अस्य शब्दस्य स्वरूपम् आदाय कारणमादाय च विभागः, वर्णध्वनिभेदेन विभागः. स्वरूपमादाय कण्ठतालवादि विविध स्थानेषु जिह्वा आदि
अभिघातेन
जिह्वा आदि अभिघातेन उत्पद्यमान वर्णः, स एव च वर्णान्तरैः विलक्षणक्रमम् आपन्नः पदमिति व्यवहारयोग्यः भवति. तच्च पदमेव पदान्तरयुक्तं वाक्यमिति प्रसिद्धं शक्तिग्रहे सति शाब्दप्रमां न जनयति. अत्र दत्तमस्ति शब्दस्य स्वरूपमादाय. स्वरूपादाय शब्दद्विविधम् अस्ति, एक अस्ति ध्वनि आत्मको, द्वितीय अस्ति वर्ण आत्मक. द्वे भागे कारणम् आदाय यदि वर्णध्वनिभेदेन विभाग, यदि वर्णध्वनिभेदेन तस्य पुनः कुत्र वर्णं उत्पद्यते तस्य विभागः भवति. यदा व्याकरणे वयं पठितवन्तः शब्दस्य प्रथमं वर्णं भवति, वर्णं योजित्वा पदं भवति, पदं योजित्वा वाक्यं भवति, व्यवहारे वयं वाक्यम् उपयुज्यामः. अत्र कण्ठ यथा कवर्गीयव्यञ्जनानि, ताल्व्य यथा च वर्गीयव्यञ्जनानि, मूर्ध्य व्यञ्जनानि, तवर्गीय दन्तीय व्यञ्जनानि, यदा तवर्गीयव्यञ्जनानि, ओष्ठं वर्गीयव्यञ्जनानि, यदा पवर्गीयव्यञ्जनानि, कुत्र शब्दस्य उत्पादनं भवति तत्र वयं तस्य विभागं कुर्मः. तस्य कारणं कुत्र अस्ति कण्ठ ताल्व्य इत्यादि स्थलेषु, सः एव च वर्ण अन्तरैः विलक्षणक्रमम् आपन्नः, तस्य भिन्ना क्रमं वयं पदं कुत्र अस्ति, व्यवहारयोगे कथं भवति इति दत्तमस्ति.
पदम् इति यत् भवति विलक्षणक्रमं क्रमेण एव भवति, वर्णक्रमः विलक्षणरूपेण भवति चेत् यत् अर्थबोधः भवत्यः अर्थबोधः भवति तदेव पदम् इति.
यदि वाक्यं भवति तस्य वाक्ये अर्थबोधं भवति, तस्य वाक्ये शक्तिः अस्ति, तस्य बोधनस्य शक्तिः भवति तत्र.
प्रमाम् इति किं शाब्दप्रमाम् इति अस्ति खलु, शाब्दप्रमाणं च जनयति.
शब्दस्य प्रमाणं
शाब्दबोधः इति उच्यते खलु.
वर्णं यदि भवति तस्य श्रोत्रियन्द्रिये ग्राह्यत्वं शब्द भवति प्रमाणम्
इत्युक्ते पदैः एव वाक्यं भवति, वाक्ये यः शक्तिः अस्ति ते तया एव शाब्दबोधः भवति. इत्युक्ते शाब्दज्ञानं भवति, प्रमा इत्युक्ते ज्ञानं वा बोधः. अस्तु, तदेव विषयः अस्ति. अत्र सन्देहः अस्ति वा महोदय? शुकवन महोदय, किमपि वक्तव्यम् अस्ति वा?
नास्ति भगिनि, किमपि नास्ति
महोदय।
हा नास्ति भगिनि, किमपि नास्ति, श्रूयते वा?
आम् आम् आम्,
हा हा,
अस्तु। तर्हि प्रश्नः अस्ति वा, अन्य कस्यापि प्रश्नः अस्ति वा?
राम भगिनि,
अस्तु, तर्हि प्रश्नः अस्ति चेत् वदामः।
धन्यवादः भगिनि,
धन्यवादः,
अस्तु भगिनि, धन्यवादः,
शुभरात्रिः।
शुभरात्रिः।